अज्ञानतिमिरान्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे वंशाकल्पतरुभ्यश्च कृपासिन्धुभ्यैव च पतितानं पावनेभ्यो वैष्णवेभ्यो नमो नमो महावदन्याय कृष्णप्रेमप्रदायते कृष्णाय कृष्णचैतन्य नाम्ने गौरतिशे नमः गुरवे गौरचन्द्राय राधिकायै तदालयै कृष्णाय कृष्णभक्ताय तदभक्ताय नमो अंगश्यामलिं छटाभिरभितो मन्दीकृतेन्दीवरम् जट्टञ्जागुडरोचिसंविदधतङ्पट्टम्बरस्य श्रिया वृन्दारण्यनिवासिनं हृदि लसद्दामाभिरामोदरम् राधास्पन्दनिवेशितो जलभुजं ध्यायेम् दामोदर तवैवास्मि तवैवास्मि न जीवामि तया विना इति विज्ञाय राधे तं नयमाम चरणन्ति गे रुदन्तमुहुर्नेत्र युग्मं मृजन्तं कराम्भोजयुग्मेन सातं कनेत्रं मुहुर्श्वासकम्प त्रिरेखं ककण्ठ स्थितगैवं दामोदरं भक्तिबद्धं नमामि स्वरं सचिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम्